सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। इदानीं तत्र सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम् इति विषये चर्चा प्रचलन् अस्ति। तत्र इदानीं पर्यन्तं तत्र साररूपेण वदामः चेत् तत्र ये दशलकाराः सन्ति तेषु चत्वारि लकाराः सार्वधातुकलकाराः अपि च षट् लकाराः अर्धधातुकलकाराः। परन्तु सार्वधातुकलकाराः अर्धधातुकलकाराः इति नामकरणं तत्र व्याकरणशास्त्रे तत्र अष्टाध्यायीग्रन्थे इति नामकरणं नास्ति। एतत् नामकरणं माताभिः कृतं। किमर्थं कृतम् इति चेत् तत्र यः मूले यत् ग्रन्थे सार्वधातुकम् अर्धधातुकम् इति यः नामकरणम् अस्ति तत् नामकरणं तु प्रत्ययानां कृते, इत्युक्ते धातोः अनन्तरं येषां येषां प्रत्ययानां विधानं ते सार्वधातुकं भवितुम् अर्हति अथवा आर्धधातुकं, सार्वधातुकं नास्ति चेत् ते आर्धधातुकम्। एतत् कथं जानीमः? सूत्राधारेण एव जानीमः। तत्र तिंशित् सार्वधातुकम् आर्धधातुकं शेषः इति सूत्रद्वयं ते एतत् सूत्रद्वयं धातोः अधिकारे आयाति। अपि च धातोः अनन्तरं ये तिङ्प्रत्ययाः ये षित् प्रत्ययाः तेषां नामकरणं तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकम् इति भवति, विशिष्टनामकरणं सार्वधातुकम्। सो ये प्रत्ययाः धातु अनन्तरम् आयान्ति अपि च ये तिङ्समूहे अपि च ये षित् सन्ति तेषां सार्वधातुकम् इति महर्षिणा नामं दत्तम्। अपि च तिंशित् विहाय अन्य सर्वे प्रत्ययाः ये धातोः अनन्तरं येषां विधानं कृतं ते आर्धधातुकम् इति तेषां संज्ञा आर्धधातुकम् इति भवति। सो एतादृशः प्रत्ययानां यः नामकरणम् अस्ति तस्य आधारेण तत् आधारेण एव माताजीना सार्वधातुकलकारः अर्धधातुकलकारः इति नामकरणं दत्तम्। इत्युक्ते मूले तिंशित् सार्वधातुकम् इति सूत्रेण मूले सर्वे तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः तेषां सार्वधातुकम् इति नामकरणम् अनेन सूत्रेण, इत्युक्ते तिंशित् सार्वधातुकम् इति औत्सर्गिकसूत्रं सामान्यसूत्रं। सूत्रं वदति ये तिङ्प्रत्ययाः अपि च ये षित् प्रत्ययाः धातो अनन्तरं तेषां सार्वधातुकम् इति नामकरणम्। सो तिङ्प्रत्ययाः तिङ्प्रत्ययानां विधानं तत्र डैरेक्ट् न भवति, इत्युक्ते तत्र धातोः अनन्तरं साक्षात् तिङ्प्रत्ययः न विधीयते। धातोः अनन्तरं प्रथमे तत्र लकाराः विधीयन्ते, अनन्तरम् एव लस्य इति अधिकारसूत्रद्वारा तत्र लकारस्य स्थाने तत्र तिबादयः तिङ्प्रत्ययाः आयान्ति। अतः तत्र तिङ् इति यः अस्ति अनेन अस्मिन् सूत्रे तिंशित् सार्वधातुकं मूले तु तिङ्प्रत्ययाः ते सर्वे लकाराः लकारात् उत्पन्नः, इत्युक्ते लकारस्य स्थाने एव तेषां विधानं भवति। सो यस्मिन् यत्र यत्र तत्र ये चत्वारि लकाराः लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु यदा तत्र धातुयोग लट् लोट् लङ् विधिलिङ् भवति अनन्तरं तत्र लस्य इत्यनेन तत्र तिबादयस्य विधानं भवति, तत्र धातुः साक्षात् तिबादयः पश्यति। सो तिबादयः सार्वधातुकसंज्ञकाः, अतः माताजीना तत्र एतादृशः तत्र नामकरणं दत्तम्। अपि च तत्र सार्वधातुक प्रत्ययः परे अस्ति चेत् तत्र एकं विशिष्टसूत्रस्य प्रसक्तिः भवति, कर्तरि शप्। यदा तत्र यत्र यत्र यस्मिन् यस्मिन् सोपाने धातोः साक्षात् अनन्तरं कर्तर्थक् सार्वधातुक प्रत्ययः विधीयते तत्र तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः भवति। सो तादृशस्थितिः चतुर्षु लकारेषु एव तत्र उत्पद्यते. सो लट् लोट् लङ् विधिलिङ्ग् लकारे यदा तत्र धातुयोगः तिबादयः भवति तत्र धातुतिबादयस्य मध्ये किमपि नास्ति, कोऽपि व्यवधानं कोऽपि बाधा नास्ति, अतः तत्र कर्तरीशब्दसूत्रस्य प्रसक्तिः भवति. अनन्तरं ये षट्षु लकारेषु तत्र किमर्थं कर्तरीशब्दसूत्रस्य प्रसक्तिः न भवति, तत्रापि धातुयोग लृट् लो लृट् अपि च लृङ् अपि च लिट् भवति, लकारस्य स्थाने अपि तिबादयः आयान्ति, सोपानं समानं. तिबादयः सर्वे तिबादयः सार्वधातुकसंज्ञकः, किमर्थं ते षट्षु लकारेषु तत्र कर्तरीशब्दसूत्रस्य प्रसक्तिः न भवति इति प्रश्ने सति चेत् तत्र लकारनिमित्तिक चतुर्षु लकारेषु तत्र लकारनिमित्तिक विकरणप्रत्ययः सूत्राधारेण एव प्रथमसोपाने एव आयान्ति. इत्युक्ते लस्य इति अधिकारस्य पूर्वे एव लस्य स्थाने ये तिबादयः तस्य पूर्वे एव तत्र लकारनिमित्तिक प्रत्ययाः मध्ये आयान्ति. सो यद् ये सर्वे लकारनिमित्तिक विकरणप्रत्ययाः तत्र कोऽपि सार्वधातुक न, तत्र अर्धधातुकं शेषः इति सूत्रद्वारा ते सर्वे अर्धधातुकसंज्ञकाः, लकारनिमित्तिक विकरणप्रत्ययाः सर्वे अर्धधातुकसंज्ञकाः, अतः तत्र धातुः साक्षात् अनन्तरम् अर्धधातुकप्रत्ययः पश्यति न तु सार्वधातुकप्रत्ययः. अतः तत्र चतुर्षु लकारेषु तत्र किं तत्र कर्तरीशब्दसूत्रस्य प्रसक्तिः न भवति. ये तत्र लिट् लकारः अपि च आशीर्लिङ्ग्लकाराः तेषां विषये महर्षिः साक्षात् तत्र तिंशित् सार्वधातुकम् इति सूत्रस्य अपवादद्वयं स्थापितं महर्षिणा, किं तत् लिट् च लिङ्गाशीषि. सो लिट् लकारे लिट् च धातु अनन्तरं लिट् कुर्मः चेत् लिट् योजयामः चेत् लिट् स्थाने लस्य इत्यनेन यः तिबादयः तेषां आर्धधातुक् इति संज्ञा. सो लिट् च लिङ्गाशीषि इति सूत्रद्वयेन तत्र तेषां तिबादयानां कृते महर्षि आर्धधातुकम् इति संज्ञा दत्तम्. सो केवलं धातुयोग लिट् कुर्मः चेत् अनन्तरं धातुयोग तिप् भवति चेत् तत्र तिप् आर्धधातुकसंज्ञकः, तत्रापि तिप् अस्ति, परन्तु तिंशित् सार्वधातुकम् इति सूत्रस्य अपवादद्वयं लिट् च लिङ्गाशीषि, तेन किं धातुयोग लिट् अथवा धातुयोग आशीर्लिङ्ग्लकारः भवति चेत् तत्र ये तिबादयः ते आर्धधातुकसंज्ञकाः, अतः तत्रापि लिट् लकारस्य विषये अपि च आशीर्लिङ्ग्लकारस्य विषये अपि तत्र कर्तरीशब्दसूत्रस्य प्रसक्तिः न भवति. यद्यपि तयोः तत्र कोऽपि लकारनिमित्तिक विकरणप्रत्ययः नास्ति, परन्तु साक्षात् तिबादयः तत्र आर्धधातुकसंज्ञकः, अतः तत्रापि कर्तरीशब्दसूत्रस्य प्रसक्तिः न भवति. अतः माताजिना किं कृतं, यत्र आर्धधातुकप्रक्रिया यत्र आर्धधातुकप्रत्ययः निमित्तीकृत्य कार्याणि ते लकाराः षट् लकाराः, यत्र सार्वधातुकप्रत्ययः निमित्तीकृत्य कार्याणि भवन्ति ते लकाराः सार्वधातुकलकाराः इति सः सा माता तत्र वदति. सो चत्वारि लकाराः सार्वधातुकलकाराः, षट् लकाराः अर्धधातुकलकाराः. अस्मिन् करपत्रे इतोपि अधिकचिन्तनम् अस्ति अस्य विषये एव, इत्युक्ते कथं कर्तरीशब्दसूत्रस्य प्रसक्तिः भवति, लकारनिमित्तिक विकरणप्रत्ययाः के, तस्य विषये सूत्राणि कानि इति अधिकचिन्तनम् एतस्य विषये एव अधिकचिन्तनम् अस्मिन् करपत्रे अस्ति. अस्तु, इदानीं तत्र करपत्रतः पठामः. अस्तु, लक्ष्मी भगिनी अस्ति वा, लक्ष्मी एच् एस् भगिनी.
आं भगिनि, सुप्रभातं.
सुप्रभातं, प्रारम्भं करोतु भगिनि प्रथमबिन्दुतः.
सार्वधातुकम् आर्धधातुकम् इति नामद्वयं कुतः आगतम्? अष्टाध्याय्यां च द्वयोः नाम्नोः कीदृशव्यवहारः? स सार्वधातुकम् आर्धधातुकम् इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं नामकरणं भवति. द्वाभ्यां सूत्र संज्ञासूत्रायां तिङ्क्षित् सार्वधातुकं तृतीयाध्याये चतुर्थपादे त्रयोदश अधिक एकशततमसूत्र, आर्धधातुकं शेषः तृतीयाध्याये चतुर्थपादे चतुर्दशाधिक एकशततमसूत्र. इमे द्वे नामानि केषां भवतः? अत्र सार्वधातुकम् आर्धधातुकम् इति नामद्वयं अष्टाध्यायम् एव अस्ति, पाणिना एव अत्र स्थापितम् अस्ति इति अस्ति. द्वयमेव संज्ञासूत्रम् अस्ति, आर्धधातुकं शेषः अपि च किञ्चित् सार्वधातुकम्.
संज्ञासूत्रेण किं भवति भगिनि?
नामकरणं, सोरि,
सत्यं, संज्ञासूत्रेण केवलं नामकरणं भवति. कस्यचित् शब्दसमूहस्य प्रत्ययस्य कस्यचित् विशिष्टशब्दस्य नामकरणं. वदतु, तिंशित् सार्वधातुक अर्धधातुकं शेषः इति सूत्रद्वयस्य कः अर्थः?
तिंशित् सार्वधातुकम् एतत् संज्ञासूत्रम् अस्ति. तिङ् अपि च षित् अस्ति चेत् अत्र सार्वधातुकप्रत्यये तिङ् अपि षित् अस्ति चेत् एतत् तिङ्क्षित् सार्वधातुकं. सम्यक् वा?
इत्युक्ते तृतीयाध्याये चतुर्थपादे तृतीयाध्याये प्रथमपादे एकनवतितमं सूत्रमस्ति धातोः. सो धातोः इति अधिकारः अत्र वर्तते, प्रत्ययः परश्च इति सूत्र त्रयाणां सूत्राणाम् अत्र अस्मिन् सूत्रे अधिकारः वर्तते. सो धातोः तिङ्क्षित् प्रत्ययाः परश्च सार्वधातुकम् इति भवति. सो धातोः पञ्चमी अन्तं, धातोः अनन्तरं ये प्रत्ययाः तेष्टिङ् अथवा षित् तिङ् च षित् च अत्र इतरेतरद्वन्द्व. सो तिङ् अस्ति अथवा षित् अस्ति चेत् तेषां नाम संज्ञासूत्रमस्ति, तेषां नाम सार्वधातुकम् इति सूत्रस्य अर्थः. अनन्तरम् अर्धधातुकं शेषः
यः प्रत्ययः धातुभ्यः विधीयते, परन्तु तिङ् नास्ति षित् नास्ति, स च अर्धधातुकप्रत्ययः.
सत्यं सत्यं, तावदेव अस्ति. अत्र तिंशित् सार्वधातुकं साक्षात् अनन्तरम् आर्धधातुकं शेषः. सो शेषः इत्युक्ते किं? साक्षात् पूर्वे यत् उक्तं तेषां विहाय, तिङ् विहाय षित् विहाय, अन्य सर्वे धातुभ्यः विहितः प्रत्ययाः आर्धधातुकसंज्ञकः. सो यः तिङ् अस्ति तस्य आर्धधातुक इति संज्ञा न, यः षित् अस्ति तस्यापि आर्धधातुक, अषित् अपि च अतिङ् ते सर्वे आर्धधातुकसंज्ञकाः. सर्वदा तत्र प्रत्ययः आर्धधातुक वा सार्वधातुक वा इति कथं? तत्र केवलं द्रष्टव्यं तिङ् वा षित् वा. तिङ् नास्ति षित् नास्ति चेत् आर्धधातुकं, तस्य संज्ञा आर्धधातुकम् इति भवति. अपि च सः धातोः अनन्तरम् आयाति, अत्रापि धातोः इति पदस्य अनुवृत्तिः. सो धातोः अनन्तरं ये प्रत्ययाः तेषामेव नामकरणं सार्वधातुकम् आर्धधातुकम् इति भवति इति अत्र लिखितम्. अग्रे अपि पठतु.
यत् तिञ्च षित् च भवति तस्य नाम सार्वधातुकम्, अपि च यत् तिङ्क्षित् च नास्ति तस्य नाम आर्धधातुकम्. अस्तु, किन्तु यत् नाम किं, कस्य नाम भवति सार्वधातुकं, पुनः कस्य आर्धधातुकम्? अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यम्. द्वेपि सूत्रे तृतीयाध्याये अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः? प्रत्ययः प्रथम तृतीयाध्याये प्रथमपादे प्रथमसूत्र अधिकारः तृतीयाध्याय प्रथमपादे प्रथम सूत्रतः पञ्चमाध्याय चतुर्थपाद षष्ट्यधिक एकशततमसूत्रपर्यन्तं प्रत्यय इति अधिकारम् अस्ति. परश्च इति तृतीयाध्याये प्रथमपादे द्वितीयसूत्रतः अधिकारः अत्र तृतीयाध्याय प्रथमपादे प्रथमसूत्रतः पञ्चमाध्याय चतुर्थपाद षष्टि अधिक एकशततम सूत्रपर्यन्त परश्चसूत्रस्य अधिकारम् अस्ति. धातोः तृतीयाध्याये प्रथमपादे एकनवतितमसूत्रः अधिकारः तृतीयाध्याये प्रथमपाद एकनवतितमसूत्रतः तृतीयाध्याय चतुर्थपाद सप्तदश अधिक एकशततमसूत्रपर्यन्तं धातोः अधिकारः अस्ति.
इत्युक्ते तत्र पञ्चमाध्यायस्य अन्तपर्यन्तं प्रत्ययः परश्च इति सूत्रस्य तृतीयाध्यायस्य आरम्भतः पञ्चमाध्यायस्य अन्तपर्यन्तं प्रत्ययः अपि च परश्च सूत्रद्वयस्य अधिकारः बृहत् अधिकारसूत्रमस्ति. सम्पूर्णतृतीयाध्याये, सम्पूर्णचतुर्थ अध्याये, सम्पूर्णपञ्चमाध्याये, सो त्रिषु अध्यायेषु प्रत्ययः परश्च इति सूत्रस्य अधिकारः वर्तते. तत्र धातोः अनन्तरं ये प्रत्ययाः तेषां सम्पूर्णतृतीयाध्याये इति तत्र तेषां विधानं, चतुर्थ अपि च पञ्चमाध्याये तत्र तदित् अपि च सुपप्रत्ययानां प्रातिपदिकस्य अनन्तरं ये प्रत्ययाः विधीयन्ते तेषां विधानं तत्र चतुर्थाध्याये अपि च पञ्चमाध्याये. अतः वयं किं वदामः, न केवलं धातुः अनन्तरं यत् यस्य विधानं तत् प्रत्ययः, परन्तु प्रकृति अनन्तरं, प्रकृतिः धातुः भवेत् वा प्रातिपदिकं भवेत्, सो प्रकृति अनन्तरं येषां येषां शब्दानां शब्दसमूहानां विधानं तेषां प्रत्ययः इति नामकरणम्, अपि च ते सर्वदा परश्च इति अधिकारेण तत्र सर्वदा तत्र प्रत्ययः प्रकृति अनन्तरम् एव आयान्ति, तेषां विधानं प्रकृति अनन्तरम् एव भवति. सो तत्र सूत्रद्वयस्य अधिकारः. अपि च तत्र अस्मिन् तृतीयाध्याये अत्र प्रथमे एकनवतितं सूत्र आरभ्य तत्र धातोः इति सूत्रस्य अधिकारः, अनन्तरं तत्र द्वितीयसूत्रस्य द्वितीयः धातु अधिकारः अपि वर्तते. इदानीं तत् मास्तु, अग्रे गत्वा तत् पठामः. सो अत्र पूर्वस्मिन् तत्र भागे किं लिखितं, सो कथं जानीमः इति, यः सार्वधातुकम् अपि च अर्धधातुकम् इति नामकरणं कस्य इति तत्र कथं जानीमः, एतयोः अधिकारसूत्रयोः एतत् सूत्रद्वयं तत्र तृतीयाध्याये चतुर्थपादे दत्तम्, अतः तत्र कस्य कस्य सूत्रस्य अधिकारः वर्तते तेषां तेषां तत्र जानीमः चेदेव ज्ञातुं शक्यते. तत् धातोः इति पदस्य धातोः इति सूत्रस्य अधिकारः वर्तते, अतः धातोः अनन्तरम् एव ये प्रत्ययाः परे आयान्ति तेषां संज्ञा सार्वधातुकम् अथवा आर्धधातुकं भवितुम् अर्हति. सो सार्वधातुकं तिङ् समूहानां कृते अपि च षित् प्रत्ययानां कृते सार्वधातुकम् इति संज्ञा, ये शेषप्रत्ययाः ये तिङ् न ये षित् न तेषाम् आर्धधातुकम् इति संज्ञा भवति, परन्तु अत्रापि धातोः इति अधिकारः. सो धातोः अनन्तरम् एव धातुभ्यः विहितः प्रत्ययः एव सार्वधातुक् अथवा आर्धधातुकं भवितुम् अर्हति इति कथं जानीमः, एतस्य अधिकारसूत्रयोः तत्र पठामः चेदेव तत्र जानीमः. इत्युक्ते तत्र तिङ्क्षित् इति अत्र प्रत्ययः विषये किमपि न अस्ति. सो तिङ् इत्युक्ते किं, षित् इत्युक्ते किम्, इदानीं तु जानीमः. तत्र प्रत्ययः इत्यनेन तिङ् प्रत्ययः, षित् प्रत्ययः, तिङ् प्रत्ययः, षित् प्रत्ययः च ये धातोः परे आयान्ति तेषां सार्वधातुक् इति संज्ञा, शेषप्रत्ययानां शेषप्रत्ययाः ये धातोः अनन्तरम् आयान्ति इत्युक्ते तिङ् विहाय षित् विहाय तेषाम् आर्धधातुकम् इति संज्ञा महर्षिणा स्वयं कृतं, सूत्रद्वारा कृतम्. एतत् सूत्रद्वयोः द्वारा तत्र सार्वधातुकम् अपि च आर्धधातुकम् इति संज्ञा दत्तम्. अत्र अपि पठतु भगिनि, अन्ते एकं परिच्छेदमस्ति.
येभिः अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः. अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम। तादृशः च प्रत्ययः यः धातुभ्यः विधीयते। अनेन उत्तरं प्राप्तम्। अष्टाध्याय्यां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम।
इत्युक्ते तत्र लकाराणां तु महर्षिणा सार्वधातुकम् अपि च आर्धधातुकम् इति न दत्तम्। इत्युक्ते तत्र लकारः अपि धातुभ्यः विधीयते। सो यत्किमपि धातुभ्यः विधीयते तत् प्रत्ययः एव, अपि च तेषां संज्ञा सार्वधातुकम् अथवा आर्धधातुकं भवति। सो लकारः, दश लकाराः पश्यामः चेत् ते सर्वे तिङ्ना शित्ना, सो तिङ्क्षित् विहायते प्रत्ययाः। सो ते सर्वे मूले तु आर्धधातुकसंज्ञकाः। अतः तत्र प्रथमसोपाने यदा तत्र धातुयोगलकारः भवति तस्मिन् सोपाने कर्तरी शब्दसूत्रस्य प्रसक्तिः न भवति। किमर्थं चेत् सर्वे लकाराः एतत् सूत्रद्वयस्य आधारेण तत्र आर्धधातुकसंज्ञकाः, ते अपि शब्दसमूहः लकारः, लट् लोट् लङ् विधिलिङ् लिङ् लिट्, ते अपि शब्दसमूहः। तेषां विधानं सूत्रद्वारा धातुभ्यः एव विधीयते, धातोः अनन्तरम् एव कृतं महर्षिणा। सो यत्किमपि धातोः अनन्तरम् आयान्ति, प्रथमबिन्दुः अस्ति तत् प्रत्ययः, अपि च सः परे आयाति, कस्य परे, धातोः अथवा प्रातिपदिकस्य परे, अपि च धातोः अनन्तरं ये प्रत्ययाः तेषां संज्ञा सार्वधातुकम् अथवा आर्धधातुकम् इति भवितुम् अर्हति। सो कथम् एतत् सूत्रद्वयस्य द्वारा एव जानीमः प्रत्ययः सार्वधातुक वा आर्धधातुक वा? सो सर्वे लकारः मूले तु प्रत्ययः एव, अपि च आर्धधातुकप्रत्ययः। किमर्थं चेत् तिङ् नास्ति, शित् नास्ति, अनन्तरमेव लस्सि इत्यनेन तेषां तिवादयस्य विधानम्, अनन्तरं ये तिवादयः अनेन सूत्रेण औत्सर्गिक सामान्यसूत्रद्वारा तत्र जानीमः सर्वे तिङ्प्रत्ययाः, अष्टादश तिङ्प्रत्ययाः अनेन सूत्रेण एव तिंशत् सार्वधातुकम् इति सूत्रद्वारा एव सार्वधातुकसंज्ञकः। सो तत्र प्रायशः तत्र एतादृशः नामकरणस्य प्रयोजनं किम्? किमर्थं महर्षिणा एतत् विशिष्टनामकरणं दत्तम्? प्रत्ययानां कृते यद्यपि तिङ् इति तत्रापि नामः अस्ति, तिङ् इति एकं नामकरणम् एव, शित् अपि नामकरणं, परन्तु किमर्थम् एकं विशिष्टनामकरणं दत्तं? तत्र बहुषु सूत्रेषु सार्वधातुके परे, सार्वधातुके परे इति तत्र कार्याणि सम्भवति। अतः तत्र एतादृशं कुत्रचित् यथा तत्र आर्धधातुकस्येड् वलादेः, सो तत्र आर्धधातुकप्रत्ययनिमित्तीकृत्य कार्याणि सम्भवति। अतः एतादृशः विशिष्टनामकरणं तत्र अपेक्षितं। किमर्थं चेत् अग्रे गत्वा तत्र सूत्रेषु तत्र बहुत्र तत्र लभ्यते, आर्धधातुके परे एकं कार्यं, सार्वधातुके परे एकं कार्यम्। अतः तत्र अस्माभिः किं ज्ञातव्यम्? आर्धधातुकम् इत्युक्ते किं, सार्वधातुकम् इत्युक्ते किं? सो प्रत्ययानाम् एव नामकरणम् अस्ति, अपि च तत्र विशिष्टकार्याणि भवन्ति। अग्रे गत्वा सूत्रेषु महर्षि एतत् पदद्वयस्य तत्र प्रयोगः सः करोति। अतः तत्र कथं सूत्रस्य अर्थं जानीमः, तत्रापि सूत्र संज्ञासूत्रद्वारा एव जानीमः प्रत्ययानां नामकरणम् अर्धधातुक सार्धधातुकम्, अपि च कीदृशप्रत्ययानाम् इति अत्र अग्रे अत्र दत्तम्। अस्तु भगिनि, धन्यवादः। अग्रे कः पठति, कः अथवा का पठति? नारायण महोदय पठति वा? महोदय सरलमस्ति, महोदय
द्वितीयबिन्दु सार्वधातुकः धातुः नाम कः, अर्धधातुकः नाम कः, धातूनाम् एतादृशानां नाम एतादृश नामकरणं किमपि नास्ति एव। धातोः विभजनं सार्वधातुकत्वेन अर्धधातुकत्वेन च न क्रियते। इयं करपत्रे सार्वधातुकनाम किम्, अर्धधातुकनाम किम्, सार्वधातुक नाम प्रत्ययाः नामकरणमस्ति सन्ध्या सूत्रमस्ति नाम आर्धधातुक प्रेपन् प्रत्ययः नामकरणमस्ति धातूनाम् एतादृशनामकरणं किमपि नास्ति नैव धातु अस्ति नामकरणं नास्ति ओके ये धातोः विभजनं विभजनं सार्वधातुकत्वेन अर्धधातुकत्वेन च न क्रियते धातु डोण्ट् बिलाङ्ग् टु ऐदर् आफ् दीस् टु इट् इस् द नेम् सार्वधातुकम् एण्ड् अर्धधातुकम् आर् द नेम्स् आफ् द प्रत्ययास् as per the lakaras okay this what is second thing says number 3
इत्युक्ते महोदय अत्र सार्वधातुक धातुः इति अस्ति सो प्रश्नः अस्ति सार्वधातुक इति धातुः इति नामः कः अपि च अर्धधातुक धातुः इति नामः कः अत्र लिखितम् एतादृशः नामकरणमेव नास्ति धातुविषये एतादृशः नामकरणं न क्रियते केन न क्रियते महर्षि एतादृशः नामकरणं धातुविषये न कृतं प्रत्ययानां विषये कृतं
किं
तावदेव अस्ति सो धातूनाम् एतादृशः नामकरणं किमपि नास्ति एतादृशः नामकरणं किमर्थम् अत्र लिखितम् इति अग्रे तत्र पश्यामः अग्रे अपि पठतु महोदय तृतीयबिन्दुः अपि पठतु
सार्वधातुकप्रत्ययः नामकः अर्धधातुकप्रत्ययः नामकः यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा शित् अस्ति सः च सार्वधातुकप्रत्ययः तिङ् शित् सार्वधातुकं तृतीय अध्याये चतुर्थपादे त्रयोदशे एकं एकशतम् इति सूत्रं यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् न वाचित् अस्ति स च अर्धधातुकप्रत्ययः अर्धधातुकं शेषः तृतीयपादे चतुर्थ सूत्रे चतुर्दश अधिक एकम् एकशतम् इति सूत्रम् किं यः वर्तते धातुभ्यः सार्वधातुकप्रत्ययः नामकः प्रत्ययस्य नाम सार्वधातुकः किंवा आर्धधातुकप्रत्ययः इति अस्ति यः प्रत्ययः धातुभ्यः विधीयते धातुभ्यनन्तरं ये विधीयते प्रत्ययः ये द्वि अस्ति एक तिङ् प्रत्ययः अथवा षित् प्रत्ययः अस्ति अनेन नामकरणं सार्वधातुकप्रत्ययः अस्ति अनि किं सूत्रेण किं तिङ् षित् सार्वधातुकम् इति सूत्रं नामकरणम् ओके
अनेन सूत्रेण केन सूत्रेण तिङ् षित् सार्वधातुकम् इति सूत्रेण इति नामकरणम् आम् सत्यम् अनन्तरं
यः प्रत्ययः धातुभ्यः विधीयते अपि च ये तिङ् नास्ति षित् नास्ति ये प्रत्ययाः अर्धधातुकप्रत्ययः इति नामकरणं दत्तम् अर्धधातुकं शेषः इति सूत्रं विधीयते
सत्यं सत्यं महोदय सो तत्र प्रत्ययानाम् एव तत्र सार्वधातुकम् अपि च अर्धधातुकम् इति नामकरणं न तु धातूनां कृते अपि च लकाराणां कृते एतादृशः नामकरणं तु प्रत्ययानां कथं जानीमः प्रत्ययः परश्च धातोः इति द्वारा एव अधिकारसूत्रद्वारा एव जानीमः तत्र प्रत्ययानाम् एव तिङ् सार्वधातुकम् अपि च अर्धधातुकम् अस्तु महोदय धन्यवादः केवि महोदय चतुर्थबिन्दु पठति वा महोदय
नमस्कारः एकं संशयम् अस्ति मनसि लकार नामपदमस्ति लकार स्वयं न आयाति धातुपरे लकार नामकरणमस्ति लट् लोट् लिङ् इत्यादि लट् लोट् लिङ् इत्यादि तत्र आयाति धातुपरे. अतः लकारस्य अहं आर्धधातु नाम कथं दत्तं
तत्र महोदय? तत्र ये लकाराः तेषां कृते अपि सूत्राणि सन्ति, इत्युक्ते तत्र वर्तमाने लट् इति एकं सूत्रमस्ति. वर्तमाने लट् इति सूत्रं, तत्र सूत्रसङ्ख्या किम् इति पश्यामः चेत् एकनिमिषः. तृतीयाध्याये एव अस्ति. अत्र दृश्यते तृतीयाध्याये द्वितीयपादे त्रिविंशति अधिक एकशततम सूत्रमस्ति वर्तमाने लट्. सो इदानीं तत्र वर्तमाने लट् इति सूत्रे अपि धातोः प्रत्ययः परश्च इति सूत्रस्य अधिकारः वर्तते. लट् इत्युक्ते किं? लट् इत्युक्ते वर्तमाने लट्, वर्तमानकालस्य विवक्षायां तत्र धातोः अनन्तरं लट् इति प्रत्ययः परे आयाति इति तत्र अर्थः. सो लट् इति यः अस्ति शब्दसमूहः, तत्र लट् इति यः अस्ति तस्य कृते कोऽपि संज्ञासूत्रं नास्ति न. लट् इत्युक्ते किं? लट् इत्युक्ते लकार अकार टकारस्य शब्दसमूहस्य एकं विधानं धातोः अनन्तरम्. अपि च तत्र पूर्वे किं दृष्टं? धातोः अनन्तरं यस्य शब्दसमूहस्य विधानं तस्य नामः प्रत्ययः एव. अपि च परश्च इत्यनेन सह धातोः अनन्तरम् एव आयान्ति. इत्युक्ते अत्र दृश्यतु महोदय, लट् इति यः अस्ति तत्र अकारः उच्चारणार्थं, टकारस्य इत्संज्ञा. सो वयं जानीमः तत्र यद्यपि अत्र न तस्य तत्र टित् यस्मिन् यस्मिन् टित् अस्ति, यः टित् अस्ति सः कुत्र आयाति? आद्यन्तौ टकितौ इत्यनेन सः आदौ आयाति. सो लकारः धातोः अनन्तरं न आयाति. किमर्थं? किमर्थं चेत् अत्र परश्च इति सूत्रस्यापि अधिकारः. सो परश्च इत्यनेन किं? यः प्रत्ययः धातोः अनन्तरं यस्य विधानं सः केवलं परे परश्च इति विधीयते. परे एव विधीयते. कस्य परे? धातोः परे. पञ्चमीयन्तमपि अस्ति, अपि च परश्च इति सूत्रमपि स्पष्टीकरणार्थं दत्तम्. सो धातोः अनन्तरम् अनेन सूत्रेण लट् इति शब्दसमूहस्य विधानम्. लट् इति शब्दसमूहः धातोः अनन्तरम् आयाति यस्य यस्य शब्दसमूहस्य विधानं धातोः अनन्तरं तस्य प्रत्ययः इति वयं वक्तुं शक्यते. सः प्रत्ययः एव. अतः लट् कुत्र विधीयते? धातोः अनन्तरं विधीयते. पञ्चमीयन्तम् अस्ति, तत्र पूर्वनिमित्तं परकार्यं, तस्य धातोः परे कार्यं. सो लट् धातोः परे आयाति, अपि च परश्च अपि इत्यनेन अपि लट् परे आयाति. सो धातोः अनन्तरं यस्य कस्य शब्दसमूहस्य विधानं प्रथमे तु सः प्रत्ययः एव. सो लट् अपि प्रत्ययः. तत्र किम् अवशिष्यते? ल एव अवशिष्यते. अन्ततो गत्र अनुबन्धानां निष्कासनम्, अत्रापि प्रत्ययेषु अपि अनुबन्धानाम् इत्संज्ञक तत्र प्रकरणस्य आधारेण तत्र वर्णानाम् इत्संज्ञा करणीयं. सो अत्र ल एव अवशिष्यते. अतः तत्र ल अवशिष्यते चेत् हौ डु वी प्रोनौन्स् देट्? क ख ग अस्ति चेत् ककारः, खकारः, अकारः, उकारः, तथैव अत्रापि लकारः इति वदामः. सो लकारः एव अवशिष्यते. लकार इस् नाट् अ प्रातिपदिकम्. इट् इस् अ हौ डु वी से इन् व्याकरणशास्त्रः, वी एड् अ कारः. सो लकारः अत्र लट् लकारः. किमर्थं चेत् केवलं ल इति वर्णः एव अवशिष्यते. सो ल इति उच्चारणं कथं कुर्मः, अतः वयं किं वदामः, लट् अपि लट् लकारः अपि प्रत्ययः, कथं जानीमः, धातु प्रकृति अनन्तरं यस्य शब्दसमूहस्य विधानं सः प्रत्ययः, अपि च वयं जानीमः इदानीं लट् अपि प्रत्ययः, वयं जानीमः धातोः अनन्तरं ये ये प्रत्ययाः येषां येषां प्रत्यये शब्दसमूहानां विधानं ते तेषां संज्ञा इस् ऐदर् सार्वधातुक् और् आर्धधातुक्. There can be only two संज्ञास् for a type of प्रत्ययः which comes after धातुः. Lut comes after धातुः, लोट् comes after धातुः, तथैव भिन्नभिन्नसूत्र आधारेण एव लोट् लकारस्य विधानम्, आशीर्लिङ्ग्लकारस्य विधानं, लिट् लकारस्य विधानं, भिन्नभिन्नसूत्रद्वारा तत्रापि सर्वत्र धातोः प्रत्ययः परश्च इति सूत्रस्य अधिकारः वर्तते. तो यत् ये ये लट् अपि शब्दसमूहः, लोट् अपि शब्दसमूहः, स्य अपि शब्दसमूहः, शप् अपि शब्दसमूहः, कर्तरि शप् इत्यनेन किं भवति, शप् इति शब्दसमूहस्य विधानं धातोः अनन्तरं कदा भवति, तत्र निमित्तं तत्र द्वितीयः विषयः अस्ति. परन्तु शप् अपि शब्दसमूहः, श्यन् अपि शब्दसमूहः, स्य अपि शब्दसमूहः, चिलि अपि शब्दसमूहः, लट् अपि शब्दसमूहः, तत्र तुमुन् अपि शब्दसमूहः. तो कथं जानीमः तुमुन् इज प्रत्ययः, प्रत्ययः परश्च धातोः, कथं जानीमः तुमुन् धातोः अनन्तरम् एव विधीयते, सूत्रस्य अधिकारसूत्रद्वारा एव ज्ञातुं शक्यते. सो एतत् धातोः प्रत्ययः परश्च एतस्य अधिकारः तत्र सम्पूर्णतृतीयाध्याये वर्तते. सम्पूर्णतृतीयाध्याये धातोः इति पञ्चमी अन्तम् अस्ति, तस्य अनन्तरं यस्य यस्य सूत्रद्वारा यस्य यस्य शब्दसमूहस्य विधानं सः प्रत्ययः, अपि च तस्य संज्ञा प्रत्ययः अस्ति चेत् सार्वधातुकम् अपि च आर्धधातुकम् इति तु प्रत्ययानां कृते एव नामकरणं, कीदृशप्रत्ययानां, धातोः अनन्तरं. सो प्रातिपदिकस्य अनन्तरं येषां शब्दसमूहानां विधानं ते तु प्रत्ययः एव, परे अपि आयान्ति, परन्तु तेषां संज्ञा सार्वधातुकम् आर्धधातुकं न भवति. किमर्थं? तत्र धातोः इति चतुर्थ अध्याये पञ्चमे अध्याये तत्र धातोः इति अधिकारः न वर्तते, केवलं तृतीयाधिकारे एव धातोः इति अधिकारः वर्तते. अतः तृतीयाध्याये एव येषां येषां शब्दसमूहानां विधानं तेषाम् एव तत्र सार्वधातुकम् अपि च आर्धधातुकम् इति नामकरणं भवितुम् अर्हति. सो लट् लकारः अपि धातोः अनन्तरम् एव विधानं, शब्दसमूहः अस्ति, धातोः अनन्तरं विधीयते, प्रत्ययः तस्य संज्ञा तस्य नाम प्रत्ययः एव भवति, अतः प्रत्ययः अस्ति चेत् सार्वधातुकं वा आर्धधातुकम् इति सूत्रद्वयस्य आधारेण एव ज्ञातुं शक्यते. अत्र तिङ् नास्ति, शित् नास्ति, अतः आर्धधातुक एव. लट् लोट् लङ् कोऽपि शित् तत्र शकारसि इति कुत्रापि नास्ति, अपि च तिङ्समूहे अपि लट् लोट् लङ् नायाति, तत्र तिप्तजि सिप्तस्त एते अष्टादश तिङ् प्रत्ययाः, तेषाम् एव संज्ञा सार्वधातुक. अन्य सर्वे अन्यशेषप्रत्ययाः सर्वे आर्धधातुकसंज्ञकाः इति सूत्रस्य अर्थः महोदय. सो लट् लोट् लङ् अपि धातोः अनन्तरम् एव विधीयते, ते अपि शब्दसमूह एव. सो यस् अतः मया किम् उक्तं, धातोः अनन्तरं यस्य शब्दसमूहस्य विधानं सः प्रत्ययः, अपि च सः परे एव आयाति. कस्य परे? धातोः परे आयाति. अपि च प्रत्ययः अस्ति चेत् तस्य सार्वधातुकम् अथवा आर्धधातुकम् इति संज्ञा भवितुम् अर्हति. तावदेव अस्ति महोदय.
अस्तु, धन्यवादः. पठामि वा?
आम्, चतुर्थबिन्दुतः.
सार्वधातुकलकारः इत्युक्ते किम्? यस्मिन् लकारे धातोः अनन्तरं कर्तर्थकः सार्वधातुकप्रत्ययः साक्षात् दृश्यते तस्मिन् लकारे कर्तरि शप् इत्यनेन शप् विधीयते अपि च तद् अर्थमेव स च सार्वधातुकलकारः तदर्थं किम् इति चेत् शपः विधानमेव सार्वधातुकलकारः इति नामकरणस्य निमित्तम् अत्र वदति प्रश्नम् उदेति सार्वधातुकलकारः क अस्ति किं सार्वधातुकलकारः क कः यस्मिन् लकारे धातोः अनन्तरं कर्ता कः सार्वधातुकप्रत्ययः साक्षात् दृश्यते तस्मिन् लकारे कर्तरि शप् त्रीणि शप् विधीयते अपि च तद् अर्थम् एव सचल सार्वधातुकलकारः सार्वधातुकलकारः अस्ति यः लकारः धातो अनन्तरं कर्तृ अर्थक् प्रत्ययः धातो अनन्तरम् आयाति अपि च धातो एवं प्रत्ययः मध्ये बाधा न अस्ति धातो साक्षात् प्रत्ययः धातो परे साक्षात् प्रत्ययः अस्ति तस्मिन् लकारे कर्तरि शप् इत्यनेन सूत्रेण शप् मध्ये आयाति तत् अपरम् तस्य प्रत्ययस्य सार्वधातुक सार्वधातुकलकारः मातायाः नामकरणं दत्तम् अस्ति तदर्थं किम् इति चेत् शपः विधानमेव सार्वधातुकलकारः इति नामकरणस्य निमित्तं शप् कारणेन तदर्थं किम् इति चेत् शपः विधानम् एव सार्वधातुकलकारः इति नामकरणस्य निमित्तम् निमित्तम् अत्र क अस्ति निमित्तं
नामकरणं
हेतु अस्ति किन्तु शपः विधानम् एव सार्वधातुकलकारः इति नामकरणस्य निमित्तं नामकरणस्य निमित्तं शप् अस्ति वा
इत्युक्ते तत्र एतादृशः नामकरणं तु व्याकरणे नास्ति सार्वधातुकलकारः इति नामकरणं तु नास्ति किमर्थं माताजिना सार्वधातुकलकारः इति नामं दत्तम् इति अत्र अस्ति किमर्थम् इत्युक्ते किं सार्वधातुकलकारः इत्युक्ते किं लकारः प्रत्ययः तत्तु सत्यं परन्तु सर्वे लकाराः तु अर्धधातुकः किमर्थं चतुर्षु लकाराणां कृते सार्वधातुकलकारः इति नामकरणं षट् लकाराणां कृते अर्धधातुकलकारः इति नामकरणं माताजिना एव दत्तं किमर्थं दत्तम् इति प्रश्नः अस्ति तत्र तस्य अर्थः कः अत्र अस्मिन् परिच्छेदे वदति यस्मिन् यस्मिन् लकारे इत्युक्ते इदानीं तु जानीमः लट् लोट् लङ् विधिलिङ् लकारे तत्र एतेषु चतुर्षु लकारेषु किं भवति यदा तत्र धातुयोगः लिङ् विधिलिङ् अपि च लोट् अपि च लङ् अपि च लट् भवति तत्र अनन्तरं तत्र मध्ये एतेषु चतुर्षु लकारेषु कोऽपि मध्ये किमपि व्यवधानं नास्ति तत्र डैरेक्ट् लस्सि इति अधिकारद्वारा अस्माकं विवक्षा अनुसारेण तत्र एकवचन द्विवचन बहुवचन अपि च मध्यमपुरुष उत्तमपुरुषस्य प्रत्ययः विधीयते अस्माकं विवक्षा अनुसारेण यत् वयम् इच्छामः तस्य अनुसारेण एव तत्र तिबादयः विधीयते तत्र एतेषु चतुर्षु यस्मिन् यस्मिन् लकारे धातोः अनन्तरं तत्र सार्वधातुकप्रत्ययः साक्षात् दृश्यते साक्षात् दृश्यते चेत् तत्र मध्ये कोऽपि बाधा नास्ति. धातु तिबादयस्य मध्ये किमपि नास्ति, साक्षात् परे अस्ति, इत्युक्ते सप्तमी निमित्तं. यथा तत्र ई साक्षात् अनन्तरम् अ अस्ति चेदेव यन् आदेशः भवति. सो ई मध्ये ई अपि च अ मध्ये किमपि अन्यत् वर्णः अस्ति चेत् तत्र यनादेशः न भवति. तथैव अत्र कर्तरि शब्सूत्रस्य प्रसक्तिः कदा भवति? यदा तत्र धातोः अनन्तरं साक्षात् अनन्तरम् अत्र सार्वधातुके इति सप्तमी निमित्तमपि अस्ति. कर्तरि शप् सार्वधातुके, सो सार्वधातुके प्रत्यये परे. सार्वधातु इत्युक्ते किं? प्रत्ययः. कीदृशप्रत्ययः? तिंशित् प्रत्ययः एव सार्वधातुकः. सो धातुः अनन्तरं साक्षात् अनन्तरं सार्वधातुकर्तर्थक् प्रत्ययः विधीयते चेत् तत्र एव शप् इति शब्दसमूहस्य विधानं भवति. कुत्र भवति? प्रत्ययः परश्च प्रकृति अनन्तरम् एव भवति, धातोः साक्षात् अनन्तरम् एव भवति. सो यस्मिन् यस्मिन् लकारे कर्तरि शप् सूत्रस्य प्रसक्तिः भवति अपि च कार्यमपि भवति तत्र एव किं? तत्र एव तस्य तादृशलकारस्य एव माताजीना सार्वधातुकलकाराः इति नामकरणं दत्तम्. अतः सार्वधातुकलकारस्य यः लकारेषु किं भवति? शप् इति विधानं भवति. तत्र शप् प्रत्ययस्य शप् प्रत्ययः इति सूत्रस्य विधिः भवति. अपि च अतः तत्र अत्र किं लिखितं? ये सार्वधातुकलकाराः ते एतादृशः नामकरणं किमर्थं चेत् तत्र यत्र यत्र यस्मिन् यस्मिन् लकारे कर्तरि शप् सूत्रस्य प्रसक्तिः तस्य लकारस्य नाम एव सार्वधातुकलकारः. अतः अत्र किं लिखितं? शप् इज अ हेतुः. शप् यत्र यत्र शप् विधीयते तत्र एव सार्वधातुकप्रक्रिया भवति. सो तत्र तेषु तेषु लकारेषु एव सार्वधातुकलकारः इति नामकरणम्. अतः अत्र किं लिखितं? शप् विधानम् एव यत्र यत्र शप् विधीयते, यत्र शप् आयाति, यस्मिन् यस्मिन् लकारे धातोः तिबादयस्य मध्ये शप् इति आयाति तत्र एव सार्वधातुकलकारः इति माताजीना नामकरणं दत्तम्. सो शप् एव निमित्तं नामकरणस्य, कस्य नामकरणस्य? सार्वधातुकलकारः इति नामकरणस्य हेतुः किम् अस्ति? यत्र यत्र कर्तरि शप् सूत्रस्य प्रसक्तिः तत्र एव वदामः सार्वधातुकलकारः. इत्युक्ते महोदय तत्र धातुः तत्र आत्मनिपदि धातुः अस्ति चेत् तत्र शानच् इति प्रत्ययः विधीयते. धातुयोग शानच् भवति. यदि तत्र यथा तत्र वन्द धातुः अस्ति, आत्मनेपदी धातुः अस्ति, परन्तु यदा तत्र परस्मैपदी धातुः अस्ति तत्र धातुयोग तत्र किं भवति? शत्रु भवति. धातुः साक्षात् अनन्तरं शत्रु अथवा शानच् भवति चेत् शित्वात् शृप्रत्ययः अपि सार्वधातुक्, शानच् प्रत्ययः अपि सार्वधातुक्, सर्वे कृत् प्रत्ययः औत्सर्गिकरूपेण कर्तरीकृत् इत्यनेन कर्तर्थके भवति. अतः तत्रापि न केवलं लकाराणां विषये, न केवलं तिबादयस्य विषये कर्तरि शप् सूत्रस्य प्रसक्तिः भवति, तत्रापि भवति. धातुयोग शानच् अथवा धातुयोग शत्रु भवति चेत् शत्रु शानच् कर्तरि अर्थ कर्तर्थके अस्ति. अपि च षित् प्रत्ययः सार्वधातुकसंज्ञकः, तिङ्षित् सार्वधातुकम् इत्यनेन षित् षित् अस्ति. अतः तत्रापि मध्ये शप् इति विधानं भवति. तत्रापि शप् तत्रापि धातुः कस्मिन् गणे अस्ति इति चिन्तनम् अवश्यं करणीयं. किमर्थं चेत् तत्र सार्वधातुकप्रक्रिया भवति, न केवलं लकाराणां विषये. यत्र यत्र कर्तरि शप् सूत्रस्य प्रसक्तिः भवति, यथा लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु, परन्तु कृतप्रत्ययस्य विषये एव तदेव प्रक्रिया अस्ति, सार्वधातुक् इति प्रक्रिया. सो सार्वधातुकलकारेषु सार्वधातुकप्रक्रिया भवति, आर्धधातुकलकारेषु आर्धधातुकप्रक्रिया भवति, सार्वधातुकप्रक्रिया इत्युक्ते किं सार्वधातुकप्रत्ययनिमित्तीकृत्य कार्याणि आर्धधातुकलकारेषु आर्धधातुकनिमित्तीकृत्ययः निमित्तीकृत्य कार्याणि इति तत्र भेदः अस्ति सो तत्र यत्र यस्मिन् यस्मिन् लकारे इदानीं तु लकाराणां विषये तिङन्तरूपस्य विषये न तु कृदन्तरूपस्य विषये सो लकार तिङन्त कथं निष्पद्यते लकारस्य स्थाने एव तिबादयः सो यस्मिन् यस्मिन् लकारे कर्तरी शब्दसूत्रस्य प्रसक्तिः तस्मिन् तस्य तादृशलकारस्य एव माताजिना सार्वधातुकलकारः इति नामकरणं दत्तं तावदेव अस्ति सो यत्र यत्र शप् शप् बिकम्स् ए कास् फार् दिस् नामकरणं दट् इस् वाट् इस् रिटन् हियर् वट् इस् द रीसन् फार् गिविङ्ग् ए सार्वधातुकलकारः इति नाम माताजिना किमर्थम् एतादृशः नामकरणं दत्तं बिकास् अत्र एतेषु चतुर्षु लकारेषु शप् विधानं भवति किम शप् विधानं कदा भवति सार्वधातुके परे एव भवति अतः सार्वधातुक् इति नामकरणं सो सार्वधातुके प्रत्यये परे एव शप् वद् भवति आर्धधातुके प्रत्यये परे तु इडागमः तत्र शप् न विधीयते सो कर्तरी शप् सार्वधातुके सो सार्वधातुके अत्र साक्षात् निमित्तसप्तमी साक्षात् परे अस्ति चेत् यदा तत्र धातुयोगस्य योग लुट् भवति शतासि लृट् भवति तत्रापि धातुयोगस्य योग तिप् अस्ति तिप् सार्वधातुक् तत्रापि तिप् सार्वधातुक् धातुयोगस्य योग तिप् अस्ति चेत् तत्रापि धातोः अनन्तरं सार्वधातुक् कर्तर्थक् तिप् प्रत्ययः अस्ति परन्तु साक्षात् परे नास्ति साक्षात् मध्ये बाधा अस्ति स्य इति बाधा अस्ति
ध्वनि न आयाति
एकनिमिषः महोदय एकनिमिषः क्षम्यताम् कुत्र अस्ति करपत्रं कुत्र अस्ति सो शब् बिकम्स् अ रीज़न् फार् ओन्ली फार् द नामकरणं देट् इस् वाट् इस् रिटन् ओवर् हियर् शप् इस् अ निमित्तम् इत्युक्ते हेतुः शप् बिकम्स् कुत्र अस्ति अत्र अस्ति सो सार्वधातुकलकारः इति नाम इत्युक्ते किम् इति नामकरणं किमर्थं यस्मिन् यस्मिन् लकारे कर्तरी शप् सूत्रस्य प्रसक्तिः तस्मिन् तस्मिन् तादृशलकारस्य नामकरणम् एव सार्वधातुकलकारः इति माताजिना कृतं सो तत्र चतुर्षु लकारेषु तत्र मध्ये विकरणप्रत्ययः बाधा अस्ति धातुतिबादयस्य मध्ये स्य ताश्चिलि इति बाधा अस्ति तत्र कर्तरी शब्दसूत्रस्य प्रसक्तिः न भवति अपि च द्वि लिट् अपि च आशीर्लिङ्गकारे तत्र धातुयोग तिप् भवति परन्तु तत्र यः तिप् अस्ति सः सार्वधातुकसंज्ञः संज्ञकः नास्ति सः अर्धधातुकसंज्ञकः साक्षात् महर्षि स्वयं वदति लिट् च लिङ्गाशिशि अर्धधातुकम् सो लिट् लकारस्य स्थाने एतिबादयः यद्यपि तत्र मध्ये किमपि बाधा नास्ति धातुतिबादयस्य मध्ये किमपि बाधा नास्ति परन्तु तत्र एतिबादयः लिट् स्थाने लकारस्य तत्रापि लकारः एव अवशिष्यते सो लिट् लकारस्य स्थाने येषां तिबादयानां विधानं ते अर्धधातुकसंज्ञकः अतः तत्रापि कर्तरी शब्दसूत्रस्य प्रसक्तिः न भवति सो यस्मिन् यस्मिन् लकारेषु इदानीं लकाराणां विषये यस्मिन् यस्मिन् लकारेषु कर्तरि शब् सूत्रस्य प्रसक्तिः तस्य लकारस्य नाम एव सार्वधातुकलकारः इदानीं वयं जानीमः तत्र कृतविषये अपि सार्वधातुकप्रक्रिया भवति तद् भिन्नविषयः परन्तु चतुर्षु लकारेषु एव कर्तरि शब् सूत्रस्य प्रसक्तिः भवति अतः तत्र अनन्तरं घन कर्तरि शब् सूत्रस्य अपवादाः सन्ति अपवादसूत्राणि सन्ति तद् भिन्नविषयः परन्तु यत्र यत्र कर्तरि शब् सूत्रस्य प्रसक्तिः तत्र एव माताजिना सार्वधातुकलकारः किमर्थं चेत् तेषु लकारेषु सार्वधातुकप्रक्रिया भवति सार्वधातुकनिमित्तीकृत्य कार्याणि सम्भवति कर्तरि शब् सूत्रमपि सार्वधातुक प्रत्ययः निमित्तीकृत्यः एव भवति शब्दा अतः शब्दः कारणं फार् दिस् नामकरणं वदतु महोदय
महोदय
वदतु
महोदय
वदतु महोदय श्रूयते लक्ष्मीकान्त महोदय
सार्वधातुक मीन्स् ओन्ली भाडिगण धातु बिकास् इट् ईस् रिटन् एस् कर्तरि शप् कर्तरि प्रयोग भवति अण्ड् शप् मीन्स् कर्तरि शप् मीन्स् ओन्ली भाडिगण भाडिगण धातु
न न महोदय कर्तरि शप् इस् इट् इस् द जनरल् रूल् यत्र यत्र धातुः साक्षात् अनन्तरं कर्तर्थक् सार्वधातुकप्रत्ययः भवति तत्र तत्र शप् दिवादि अदादिगणे अपि शप् इति विधानं भवति ज्योत्यादिगणे अपि शप् भवति परन्तु तत्र भिन्नसूत्रद्वारा तत्र शप् लुक् भवति अपि च शप् श्लु भवति लुक् श्लु अपि लोपसंज्ञा एव दशसूत्रेषु कर्तरि शप् सूत्रस्य प्रसक्तिः भवति न केवलं भुवादिगणे कर्तरि शप् सूत्रस्य प्रसक्तिः दशसु गणेषु भुवादि दिवादि सुरादि तुदादि दशसु गणेषु कर्तरि शप् सूत्रस्य प्रसक्तिः भवति परन्तु सर्वदा शप् न तिष्ठति भुवादिगणे शप् तिष्ठति चुरादिगणे अपि शप् तिष्ठति दश दशमगणे अपि शप् तिष्ठति परन्तु अन्यस्मिन् गणे किं भवति अन्यस्मिन् गणे कर्तरि शप् सूत्रस्य अपवादसूत्राणि सन्ति यथा तत्र शन् शष्णा सो शप् प्रबाद्य कर्तरि शप् सूत्रं प्रबाद्य तत्र भिन्नसूत्रस्य कार्यं परन्तु तादृशसूत्रस्य कार्यमपि सार्वधातुके परे एव भवति सार्वधातुकप्रत्ययः परे अस्ति चेदेव कार्य शन् शष्णा इति आयाति सो घनचिन्तनं दशसु लकारेषु तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति केवलं प्राप्ति द्विगणे एव भवति इत्युक्ते भुवादिगणे शप् प्रत्ययस्य प्राप्तिः भवति चुरादिगणे शप् प्रत्ययस्य प्राप्तिः भवन्ति परन्तु कर्तरि शप् सूत्रस्य प्रसक्तिः तु दशसु गणेषु एव प्राप्ति भवति वा न भवति तद् भिन्नविषयः सो यस्मिन् यस्मिन् लकारे कर्तरि शप् सूत्रस्य प्रसक्तिः तादृशलकारस्य नाम एव सार्वधातुकलकारः इति नामकरणं दत्तम् अस्तु के वि महोदय अग्रे तत्र सूत्रस्य अर्थः अपि दत्तं कर्तरि शप् तदपि पठतु महोदय
कर्तरि शप् कर्तर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति अत्र कर्तर्थे कर्तरिप्रयोगः इति बोध्यं भावे कर्मणि च शप् प्रत्ययः न विधीयते अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः अत्र वदति कर्तरि शप् इति सूत्रस्य अर्थः अनुवृत्तिसहितसूत्रम् अस्ति कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः कर्तरि प्रयोगे सा सार्वधा धातोः परः परः यः प्रत्ययः आयाति सारुधातु यः सारुधातुप्रत्ययः आयाति तत् कारणेन तत्पूर्वं शप् प्रत्ययः आयाति अत्र अहं चिन्तयामि
अत्र महोदय अनुवृत्तिसहितसूत्रं यत् अस्ति तत्र प्रत्येकस्य पदस्य विभक्ति का तत् वदतु महोदय
कर्तरी प्रथमा सारुधातुके सप्तमी कर्तरी सप्तमी सारुधातुके सप्तमी धातोः षष्टि
पञ्चमी
धातु फ्रोम् हा षष्टि पञ्चमी परः प्रथमा च अव्ययः शप् प्रथमा प्रत्ययः प्रथमा
इदानीं वदतु कः अर्थः धातोः पञ्चमी अस्ति धातोः अनन्तरं
धातोः अनन्तरं
किम् आदेशः किं तत्र भवति
शप् परस् धातोः अनन्तरं शप् प्रत्ययः यदि कर्तरि प्रयोगे सारुधातुक् प्रत्ययः अस्ति चेत्
परे अस्ति साक्षात्
परे
सप्तमी अस्ति न तस्मिन् इति उत्तरस्य तस्मात् किमस्ति तस्मिन् इति उत्तरस्य सो अत्र निमित्तसप्तमी अस्ति कीदृशसार्वधातुके इति अत्र विशेषणविशेषभावः अपि अस्ति कीदृशसार्वधातुके कर्तरि सार्वधातुके सार्वधातुप्रत्ययः केन् बि इन् द कर्तर्थक कर्मणि अर्थक भावार्थक किमर्थं यः तिवादयः लस्य स्थाने ये तिवादयः तिवादयस्य प्रयोगः तत्र त्रिषु वचनेषु भवितुम् अर्हति तिवादयस्य प्रयोगः कर्तर्थके अपि भवति कर्मणि प्रयोगे अपि भवति अपि च भावे प्रयोगे अपि भवति तिवादयस्य प्रयोगः सो अत्र केवलं कर्तरि प्रयोगे कीदृशसारु यथा तत्र धातुयोगतिवादयः यदि मम विवक्षा कर्मणि प्रयोगे अस्ति तदा शप् न विधीयते किमर्थं चेत् अत्र विशेषणं दत् सार्वधातुके कीदृशसार्वधातुकः कर्तरि प्रयोगे यः सार्वधातुकः अस्ति यः कर्मणि अथवा भावे प्रयोगे यः सार्वधातुप्रत्ययः तत्र शप् न विधीयते अत्र लिखितम् अत्र कर्तर्थे कर्तरि प्रयोगे इति बोध्यं भावे कर्मणि च शप् प्रत्ययः न विधीयते भावे कर्मणि कः प्रत्ययः विधीयते सार्वधातुके यक् इति पूर्वसूत्रम् 68 इस् अ कर्तरि शप् 67 इस् सार्वधातुके यक् तत्र भावे कर्मणि इति पदस्य अनुवृत्तिः सो भावे प्रयोगे धातुयोगः तिबादयः भावे प्रयोगे अस्ति अथवा तिबादयः कर्मणि प्रयोगे अस्ति तत्र शप् न विधीयते तत्र धातुः अनन्तरं साक्षात् अनन्तरं शप् न आयाति तत्र धातोः अनन्तरं यक् इति प्रत्ययः आयाति सो यक् इति प्रत्ययः तिङ्ना शित्ना अर्धधातुप्रत्ययः सो तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः एव न भवति दिस् इस् वाट् वी हेव् टु अण्डर्स्टाण्ड् this is even though it is easy but we have to understand this thing tibadayah can be used in the kartari prayoga can be used for bhave prayoga can be used for karmani prayoga parantu shap kada vidiyate kevalam kartari prayoge ev sarvadhatu pratyaya pare to it okay tingshit it is pratyaya tadrish pratyaya pare asti chet tatra shap vidiyate api cha sah tingshit कर्तर्थके अस्ति चेदेव शप् इति सूत्रस्य अर्थः. सो सप्तमी अस्ति, निमित् सप्तमी अस्ति अत्र. धातुः साक्षात् अनन्तरं, सो शप् इति धातुः अनन्तरं शप् प्रत्ययः विधीयते, तत् सत्यं. परन्तु कदा विधीयते? सर्वदा न विधीयते. सर्वदा शप् प्रत्ययः न आगन्तुं शक्यते धातुः अनन्तरं. कदा आयाति? यदा तत्र परे सार्वधातुकप्रत्ययः, अपि च सः सार्वधातुकप्रत्ययः कर्तरि अर्थके, कर्तर्थके अस्ति, कर्तरिप्रयोगे अस्ति, तदा एव शप् विधीयते. सो यदा तत्र धातुयोगशानिच् अथवा धातुयोगशत्रु भवति, सर्वे कृतप्रत्ययः औत्सर्गिकरूपेण जनरल् नियम आधारेण कर्तर्थके एव, कर्तरिप्रयोगे एव तेषां विधानम्. शित् शित्वात् शानच् अपि च शत्रु सार्वधातुक्. सो निमित्त सार्वधातुकप्रत्ययः अस्ति, अपि च कर्तरिप्रयोगे सार्वधातुकप्रत्ययः धातुः साक्षात् अनन्तरम् अस्ति, अतः तत्रापि शप् विधीयते. अस्य सूत्रस्य प्रसक्तिः तत्रापि भवति इति सूत्रस्य अर्थः. सो वि शुड् नो वेर् केन् दिस् सूत्र कम्, न केवलं लकारविषये. सो यदा तत्र लट् लोट् लङ् विधिलिङ्ग् लकारे यदा तत्र तिबादयस्य विधानं भवति, धातुः साक्षात् तिबादयः पश्यति मध्ये किं साक्षात् परे, इत्युक्ते सप्तमी निमित्तं साक्षात् परे सार्वधातु कर्तर्थक् प्रत्ययः अस्ति चेदेव शप् आगन्तुं शक्यते. सो धातुयोग लिट् लकारे, लिट् अपि च लिङ्गाशीषि लकारे यद्यपि कर्तर्थक् प्रत्ययः अस्ति, परन्तु तत्र महर्षि वदति लिट् च लिङ्गाशीषि, तत्र तिबादयः सार्वधातु. सो फार् तिबादयः यु शुड् अण्डर्स्टाण्ड् मूले सर्वे तिबादयः सार्वधातुकसंज्ञकः. किं विहाय? लिट् लकारे, लिट् लकारस्य स्थाने ये तिबादयः ते सार्वधातुकसंज्ञकः न. अपि च आशीर्लिङ्ग्लकारे ये तिबादयः लिङ्ग्लकारस्य, तत्र आशीर्लिङ्ग्विषये ये तिबादयः, ते अपि आर्धधातुकसंज्ञकः. अतः यद्यपि तत्र धातुः साक्षात् परे तिबादयः अस्ति, परन्तु सः तिबादयः सार्वधातुक् नास्ति, आर्धधातुकसंज्ञकः. अतः देट् इस् वै दे आर् नाट् इन्क्लूडेड् इन् द सार्वधातुकलकाराः लिट् एण्ड् लिङ्गाशीषि. यद्यपि तत्र मध्ये व्यवधानं नास्ति, स्यताश्चिलि इति तत्र बाधा मध्ये नास्ति, तथापि तत्र लकारः स्वयम् आर्धधातुकसंज्ञकाः इति तत्र भेदः. अवगतं वा महोदय? कर्तरि शप् सूत्रस्य यः अर्थः अस्ति, अपि च विधानं कुत्र कुत्र भवति, सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया इदानीमेव पृच्छतु. सो कर्तरि शप् सूत्रस्य प्रसक्तिः, कर्तरि सार्वधातुके प्रत्यये परे सप्तमी अस्ति, साक्षात् परे एव भवति. धातुयोगस्य योगत्यप् अस्ति, तत्रापि तिबादयः सार्वधातु कर्तर्थक् तिबादयः अस्ति, परन्तु धातुः साक्षात् नास्ति, मध्ये बाधा अस्ति, परनिमित्तं नास्ति तत्र, तत्र मध्यस्य अस्ति अनन्तरं सार्वधातुकर्त, अतः तत्र शप् विधानं न भवति. तत्र एतत् सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् अत्र निमित्सप्तमी, साक्षात् सार्वधातुक सप् कर्तर्थक् सार्वधातुकप्रत्ययः परे अस्ति चेदेव शप् इति प्रत्ययः आगन्तुं शक्यते, अन्यथा शप् न आगन्तुं शक्यते. उदाहरणमपि पठतु महोदय.
भूयोगा लट् भूयोगा ल लकारः भूयोगा लकारस्य लस्य स्थाने तिप् आयाति, भूयोग तिप्, तिप् कर्तर्थकः सार्वधातुकप्रत्ययः च, अतः कर्तरि शप् इत्यनेन शप् भू एवं तिप् मध्ये आयाति, भूयोग शप् योग तिप्. अत्र उदाहरणरूपेण दत्तमस्ति भू धातोः कथं शप् आयाति, शप् प्रथमे भू धातोः लट् विवक्षा अस्ति चेत् टकारस्य हलन्त्यम् इत्यनेन इत् भवति दशलोपा लकारः एव अवशिष्यते लस्य इत्यनेन सूत्रेण तिप् आयाति भूयोगा तिप् कर्तर्थके कर्तरिषप् इत्यनेन सूत्रेण तिप् तिङ् अस्ति अतः सार्वधातुकप्रत्ययः अस्ति अतः कर्तरिषप् प्रसक्तिः अस्ति कर्तर्थके अतः धातो परे शप् आयाति शप् पकारः हलन्त्यं ओके भूयोग शप् योग तिप् आयाति
सो अत्र कः लकारः कस्य लकारस्य विषये
लकारः लट्
लट् सो लट् अपि लट् लकारे कर्तरि शप् सूत्रस्य प्रसक्तिः भवति अतः लट् लकारः अपि सार्वधातुक लकारः इति तत्र भवति लट् लकारस्य नाम सार्वधातुक लकारः किमर्थं चेत् अस्मिन् लकारे कर्तरि शप् सूत्रस्य प्रसक्तिः भवति प्राप्तिः अपि भवति अतः लट् लकारः सार्वधातुक लकारः यस्मिन् यस्मिन् लकारे तथैव भूयोग लङ् कुर्मः चेत् तत्रापि ल अवशिष्यते तत्र एकवचने तिप् आयाति अपि च तत्र अन्यानि कार्याणि भूत्वा तत्र तत्रापि यः तिप् प्रत्ययः सः भू साक्षात् परे अस्ति मध्ये किमपि नास्ति किमर्थं चेत् लङ् लकारस्य विषये अपि तत्र कोऽपि लकारनिमित्तिक बाधा मध्ये नास्ति सो तत्रापि धातुः साक्षात् तिबादयः पच्छति तिबादयः तिंशित् सार्वधातुकम् इत्यनेन तिबादयः सार्वधातुकः अपि च तिबादयः कर्तर्थके अस्ति अतः तत्र कर्तरिषप्सूत्रस्य तत्रापि प्रसक्तिः भवति अतः लङ् लकारः अपि सार्वधातुकलकारः तथैव लोट् लकारे तथैव विधिलिङ्ग्लकारे परन्तु यदा वयं भूयोग लृट् कुर्मः तत्र कर्तरिषप्सूत्रस्य प्रसक्तिः न भवति किमर्थं चेत् तस्मिन् सोपाने एतस्मिन् सोपाने एव शतासि लृ लुटो इति सूत्रस्य प्रसक्तिः भवति सो लृट् लकारस्य विवक्षायाम् एव स्य इति प्रत्ययः अनन्तरम् आयाति धातोः अनन्तरं तस्य विधानं सो तत्र अनन्तरं तिबादयः आयान्ति लस्य स्थाने तिबादयः आयान्ति तिबादयः कर्तर्थके अपि अस्ति सार्वधातुक अपि अस्ति परन्तु धातुः साक्षात् अनन्तरं नास्ति तत्र लृट् लकारे तत्र धातुः साक्षात् अनन्तरं स्य अस्ति न तु तिबादयः अस्ति अतः तत्र धातु तिबादयस्य मध्ये बाधा अस्ति साक्षात् परे नास्ति निमित्सप्तमी तत्र नास्ति अतः तत्र कर्तरि तस्मिन् लकारे लृट् लकारे कर्तरि शब्दसूत्रस्य प्रसक्तिः एव न भवति सो यस्मिन् यस्मिन् लकारे कर्तरि शब्दसूत्रस्य प्रसक्तिः न भवति तादृशलकारस्य नाम एव आर्धधातुकलकारः किमर्थम् आर्धधातुकः तत्र स्य इति आर्धधातुकप्रत्ययः तत्र इडागमः भवति सो तत्र आर्धधातुकप्रत्ययनिमित्तीकृत्य कार्याणि अतः आर्धधातुकप्रक्रिया तत्र अस्ति बिकास् द कार्य हेपन्स् इन् द धातुः सो धातु अनन्तरं कीदृशप्रत्ययः इति सर्वदा तत्र द्रष्टव्यं तेन एव अवगन्तुं शक्यते अत्र सार्वधातुकप्रक्रियः वा आर्धधातुकप्रक्रियः वा अस्तु महोदय अवगतं वा
भगिनी भगिनी
वदतु
भगिनी
वदतु महोदय
why we should introduce blood and lung all these things only can we go with the shap pratyay why this lung and all other things additional things
this is not an additional thing mohode this is the basic thing tatra वर्तमानकालस्य विवक्षायां लट् विधीयते, भूतकालस्य विवक्षायां तत्र लङ् विधीयते, भविष्यकालस्य विवक्षायां लृट् विधीयते, बिकास् देयर् आर् द टेन्सेस् न महोदय. अहं किं वक्तुम् इच्छामि, अहं भूतकालस्य विषये वक्तुम् इच्छामः चेत् तत्र ऐ केन् नाट् एड् धातु अनन्तरं लट् अथवा लोट्, ऐ हेव् टु एड् लङ्. सो तत्र दिस् इस् द बेसिक् स्टेप् न. मया अहं किं वक्तुम् इच्छामि, लका यः तत्र तिङ्गन्त यः तिङन्तपदं यः अस्ति, तिङन्तपदं भूतकाल अर्थे अस्ति वा वर्तमानकाले अर्थे अस्ति वा भविष्यत्काले अस्ति वा सो आज्ञा अर्थे अस्ति वा तत्र प्रार्थनार्थे अस्ति वा, सो तस्य आधारेण एव तत्र दशलकाराः एतत् सर्वम् अग्रे आयास्यति महोदय. सो दिस् इस् द बेसिक् स्टेप् न. अनन्तरमेव लट् स्थाने लट् न तिष्ठति, ल न तिष्ठति, तत्र तिवादयस्य विधानं. लस्य स्थाने सर्वदा तिप्तजि सिप्तस्थ एते अष्टादश प्रत्ययः एव आगन्तुं शक्यते. दिस् इस् द बेसिक् स्टेप् महोदय. बिकास् वाट् ऐ वाण्ट् टु से, ऐ वाण्ट् डु ऐ वाण्ट् टु से अबौट् सम्थिङ्ग् विच् हस् हेपन्ड् इन् द पास्ट्, आर् डु ऐ वाण्ट् टु से सम्थिङ्ग् विच् इस् हेपनिङ्ग् प्रेसेण्ट्लि, or what is to be what will happen in the future. Based on that we have thus 10 lakaras, we have dash lakara.
The pratyaya, the kala is indicated, no? Only
lat is for vartamana, vartaman kala si vivakshaya. If I want to say something related to present, what is happening right now, or then I will use lat. सो तत्र भवति यः रूपम् अस्ति सः तत्र वर्तमानकालस्य तत्र अर्थः बोधयति, न तु वाट् इस् वाट् हेज् वाट् विल् हेपन् और् वाट् हेज् हेपन्ड्. भवति इति यः रूपम् अस्ति तिङन्तरूपं, बिकास् इट् हेज् कम् फ्रोम् द लट् प्रत्ययः, इट् हेज् बिन् मेड् by adding lat pratyaha to the dhatu, that is why I know that bhavati is vartaman kale eva tasya prayogah bhavati. Yada vayam vartaman kale se vishaye kim api vaktum ichhamah tatra eva tatra bhavati iti prayogah bhavati, athva tatra bhavishyati abhavat iti tatra bhavati. So tatra lakaraha is with respect to the tense, with respect to the kalah, vartaman kala va, bhut kala va, bhavishyat kala va, because the kriya has kriya, whatever is happening, whatever has happened, whatever will happen depends on the tense only. So lat, lot, lang, ete sarve kal adharen eva etanam pratyayanam vidhanam. सो अस्माकं विवक्षा अनुसारेण एव तत्र लाट् लोट् वेदर् ऐ वाण्ट् टु से वित् रेस्पेक्ट् टु सम्थिङ्ग् वाट् हेस् हेपन्ड् इन् द पास्ट् और् वेदर् ऐ वाण्ट् टु से सम्थिङ्ग् विच् विल् हेपन् इन् द फ्यूचर्. सो मम विवक्षा अनुसारेण एव लाट् लङ् अपि च लृट् आगन्तुं शक्यते. इदानीं तत्र वर्तमानकालस्य विवक्षायां तत्र वर्तमाने लट् इत्यनेन लट् प्रत्ययः विधीयते. सो लट् because we have to understand na mahodaya tatra kasya kalasi visaye etat padasya tatra prayogah bhavitum arahati.
Hari Om mahodaya, a lit lakara asti badami va
ha vadatu
mod lit lakara asti tatra bi lakara sthane ti payati sarvatam टिपायति तु किं कारणं वयं वदन्ति किमपि सामने नास्ति धातु, सामने टिप् नास्ति
धातु, साक्षात् परे अस्ति अस्ति. मया उक्तं लेट् अपि च आशीर्लिङ्ग् लकारे धातुः साक्षात् परे तिबादयः अस्ति, साक्षात् परे अस्ति, तथापि तत्र कर्तरिषब् सूत्रस्य प्रसक्तिः न भवति. किमर्थम् किमर्थं न
भवति लिट् लुङ्
न लिट् लकारे किं लिट् च लिङ्गाशीषि सूत्रद्वयम् अस्ति शताशि लृ लुटो लुट् लकारे तास् आयाति लृङ् अपि च लृट् लकारे स्य आयाति इदानीं तु भवान् कस्य विषये वदति लिट् लकारस्य विषये
लिट् लकार
लिट् लकारे किं भवति लिट् लकारे कोऽपि मध्ये किमपि व्यवधानं नास्ति तत्र कोऽपि लकारनिमित्तिक प्रत्ययः मध्ये न आयाति तत्र धातुयोग लिट् अस्ति चेत् तत्र धातुयोग तिवादयः भवति साक्षात् परे भवति परन्तु तत्र तिवादयः आर्धधातुकसंज्ञकः कथं जानीमः किमर्थम् आर्धधातुकः तिंशत् सार्वधातुकम् इत्यनेन सर्वे तिङ् प्रत्ययः तु सार्वधातुक लिट् लकारे किमर्थम् आर्धधातुक लिट् च सूत्रेण किं लिट् च सूत्रस्य कः अर्थः आर्धधातुकं शेषः अनन्तरं लिट् च आर्धधातुकसंज्ञकः लिट् इस् अ लिट् लकारे ये तिबादयः ते अर्धधातुकसंज्ञकाः इति सूत्रस्य अर्थः लिट् च सूत्रस्य अर्थः कः लिट् लकारे ये तिबादयः ते अर्धधातुकसंज्ञकः तथैव आशीर्लिङ्ग्लकारे ये तिबादयः ते अर्धधातुकसंज्ञकः देट् इस् वै ऐ सेड् फार् तिंशित् सार्वधातुकम् अनुवृत्ति अस्ति
फार्
तिंशित् सार्वधातुकं फार् तिंशित् सार्वधातुकम् इति सूत्रस्य कृते अपवादद्वयं वर्तते किमर्थम् अपवाद अपवाद इत्युक्ते विरुद्भावः अपवादः इत्युक्ते विरुद्भावः पूर्वे किम् उक्तं पूर्वे उक्तं सर्वे तिङ्प्रत्ययः सार्वधातुकसंज्ञकः इदानीं महर्षि वदति लिट् लकारे ये तिबादयः ते अर्धधातुक् तथैव आशीर्लिङ्ग्लकारे ये तिबादयः ते अर्धधातुक् सो हियर् देर् इस् सम् कण्ट्राडिक्षन् पूर्वे उक्तं सार्वधातुकम् इदानीं सः वदति अर्धधातुकम् अतः मया किम् उक्तं तिंशित् सार्वधातुकम् इति सूत्रस्य कृते अपवादद्वयं लिट् च लिङ्गाशीषि इति सूत्रद्वयेन तत्र आर्धधातुकसंज्ञकः भवति कस्य आर्धधातुकसंज्ञा तिबादयस्य किमर्थं चेत् तत्र लिट् न तिष्ठति लिट् स्थाने तत्र तिबादयः आशीर्लिङ्गस्थाने अपि तिबादयः सो तिबादयः सार्वधातुक् अतः तत्र कर्तरिषप् सूत्रस्य प्रसक्तिः न भवति तावदेव अस्ति किमर्थं चेत् शप् प्रत्ययस्य विधानं केवलं सार्वधातुके परे आर्धधातुके परे न भवति अस्तु एतत् तत्र इदानीं तु समयः नास्ति कोऽपि अन्यप्रश्नः अस्ति वा सर्वैः अवगतं वा सार्वधातुकलकारः आर्धधातुकलकारः इत्युक्ते किम् अपि च कर्तरिषप् सूत्रस्य प्रसक्तिः सार्वधातुके प्रत्यये परे एव अपि च सः सार्वधातुकप्रत्ययः कर्मणि अर्थे मा भवेत् भावे अर्थे अपि न भवेत् केवलं कर्तरिप्रयोगे अस्ति चेदेव शप् विधानम् कर्मणि भावे तु यक् प्रत्ययः विधीयते तत्रापि सार्वधातुके परे एव आर्धधातुके परे यक् न विधीयते तत्र सार्वधातुके यक् इति सूत्रम् अस्ति सो भावे अत्र लिखितं भावे कर्मणि प्रयोगे शप् न विधीयते केवलं कर्तरि प्रयोगे अतः सूत्रे एव पदं दत्तं कर्तरि पूर्वसूत्रात् सार्वधातुके इति अनुवृत्तिः कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगामः अनन्तरं कर्तरि शप् अस्तु जगदीश महोदय शान्तिमन्त्रं पठति वा महोदय
ॐ पूर्णमद पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ॐ श्रीगुरुभ्यो नमः हरि ओं तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः
धन्यवादः
धन्यवादः
धन्यवादः।